इयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः कृष्णप्रसादः। आदौ मुख्य वार्ताः। केन्द्रीयमन्त्री अमितशाहः उत्तराखण्डस्य रुद्रपुरे 77,2,000,000,000,000 रूप्यकाणां विविध विकास परियोजनानां उद्घाटनं शिलान्यासञ्च कृतवान्। केन्द्रीयमन्त्री अश्विनी वैष्णवः उक्तवान् यत् विकसित भारतस्य लक्ष्यं साधयितुं भारतं द्रुतगत्या अग्रे सरति। विश्वस्तरीय प्रौद्योगिकीनाम् उत्पादानाञ्च विन्यासं कर्तुं युव व्यावसायिकाः प्रार्थ्यन्ते इति। प्रवर्तन निदेशालयेन ऑनलाइन बैटिंग ऐप इति प्रकरणानां विषये गूगल मेटा चेत्युभाभ्यां संचेतना प्रदत्ता। दमास्कस नगरे इजराइल आक्रमणानन्तरं इजराइल देशः सीरिया देशश्च युद्धविरामाय सहमतौ स्तः। अपि च चतुरंग क्रीडायां भारतदेशः प्रथमः अभवत्, यत्र फीडे महिला विश्वकप इति क्रीडायाः प्रागुपान्त्य चक्रे 4 क्रीडिकाः प्रविष्टाः अजायन्। अथ वार्ताः विस्तरेण। केन्द्रीय गृहमन्त्री अमितशाहः अद्य रुद्रपुरे उत्तराखण्ड सर्वकारस्य 1,77,2,000,000,000 रूप्यकाणां विविध कार्याणाम् उद्घाटनं शिलान्यासञ्च अकरोत्। श्रीशाहः 25,000,000 वर्षस्य उत्तराखण्ड निवेश महोत्सवे देशस्य निवेशकैः उद्यमिभिश्च सह संवादं कृतवान्। अस्मिन् अवसरे जनान् सम्बोधयन् मन्त्री अवदत् यत् यावत् उत्तराखण्डसदृशानां लघुराज्यानां प्रगतिः न भविष्यति तावत् देशस्य विकासः न भविष्यतीति। अतः केन्द्रसर्वकारेण लघुराज्यानां पूर्वीराज्यानाञ्च विकासे विशेषं ध्यानं प्रदत्तमस्ति। श्रीशाहः अवदत् यत् अद्य उत्तराखण्डे 1,00,000,000 रूप्यकाणां निवेशेन 81,000 वृत्त्यवसराणि सृज्यन्ते।
आज यहाँ पर 1,00,000 करोड़ के इन्वेस्टमेंट के साथ साथ 81,000 से ज्यादा रोजगारी का सृजन हुआ है और इनकी एंसिलरी इंडस्ट्री से लगभग 2,50,000 के आसपास नई रोजगारी का सृजन होने का संभावना पड़ा है। और सबसे बड़ी बात, Tier 2 और Tier 3 शहरों तक इन्वेस्टमेंट को पहुंचाने का काम किया है।
श्री शाहः राज्यस्य मुख्यमन्त्रिणः प्रशंसां कुर्वन् पुष्कर सिंह धामी इत्यस्य औद्योगिक विकासस्य पर्यावरणस्य च मध्ये सन्तुलनं स्थापितवान् इति अवदत्। केन्द्रीयमन्त्री अश्विनी वैष्णवः अवदत् यत् विकसित भारतम् इति लक्ष्यं प्राप्त्यर्थं प्रौद्योगिकी आधारः द्रुतगत्या सज्जीभवति इति। अद्य प्रातः IIT हैदराबादे दीक्षान्त समारोहे भारतस्य प्रौद्योगिक्याधारितं भविष्यं प्रकाशयन् सः छात्रान् विश्वस्तरीय प्रौद्योगिक्योत्पादनानि च परिकल्पयितुम् उद्बोधितवान्। श्रीवैष्णवः अस्मिन् वर्षे भारतस्य प्रथम स्वदेशीयस्य सेमीकण्डक्टर चिप इत्यस्य प्रकाशनस्य उद्घोषणामपि कृतवान्, यत्र 6 सेमीकण्डक्टर संयन्त्रणानि निर्मीयमाणानि सन्ति, येन भारतं प्रमुख वैश्विक पात्ररूपेण स्थाप्यते।
The first manufactured in India chip on a commercial scale will be manufactured in this year 2025. The way we have created the talent pool, the way we are promoting the design, and the way we are going deeper into the capital equipment and the materials required for semiconductors, India will become one of the top 5 semiconductor nations in the world in the coming years.
अवसरेऽस्मिन् श्रीवैष्णवः रेल परिष्कार विषये अपि अवधानं दत्तवान्। 27,000,000 वर्षे प्रथमस्य बुलेट रेल यानस्य आरम्भः भविष्यति, तथैव चेन्नईनगरे निर्मितस्य तृतीय वन्दे भारत संस्करणस्य निर्माणम् अपि भविष्यतीति।
The first bullet train project is also rapidly progressing. We should see a bullet train running in 2027, somewhere in August or September. Once we build the first one, we put it in our BJP's manifesto that we'll have 3 more corridors, one in south, one in north, one in east. The first one is getting built in the west part of our country.
श्री वैष्णवेन कृत्रिम बुद्धिमत्तायाः प्रशिक्षण कार्यक्रमाणां रूपरेखायाः स्थापनेन सह 47,000,000 वर्षं यावत् आर्थिकरूपेण उन्नतयोः द्वयोः राष्ट्रयोः एकं भारतमपि भवेदिति भावना प्रकटिता। संस्कृत वार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते. सममेव कार्यक्रमोऽयम् आकाशवाण्याः www.newsonair.gov.in वेबसाइट इत्यत्र अथ न्यूज ऑन एआईआर मोबाइल ऐप इत्यत्र अपि उपलब्धो भविष्यति. प्रवर्तन निदेशालयेन ऑनलाइन बैटिंग ऐप इति प्रकरणानां विषये गूगल मेटा चेत्युभाभ्यां संचेतना प्रदत्ता. सूत्रानुसारी ईडी इत्यनेन सोमवासरे देहली मुख्यालये उपस्थातुं उभयोः संस्थयोः प्रतिनिधी आहूतौ. एतेषां ऑनलाइन बैटिंग एप्स इत्यस्य प्रचारार्थं डिजिटल प्लेटफॉर्म्स इत्यस्य भूमिकामपि निदेशालयः परीक्षते. अद्य इजरायल देशेन सीरिया देशस्य उपरि कृत क्षमाक्रमणानन्तरं तुर्की देशस्थः अमेरिका देशस्य राजदूतः टॉम बराक इत्येषः अवदत् यत् इजरायल सीरिया देशौ युद्धविरामाय सहमतौ अभवतामिति. ध्यातव्यमस्ति यत् इजरायल देशानुसारं अरबस्थानां ड्रूज इति अल्पसंख्यक मतानुयायिनां रक्षणाय आक्रमणमिदम् आसीदिति. सीरिया देशस्य दीर्घकालीन शासकस्य बसर अल असद इत्यस्य पतनादारभ्य सर्वकारीय सैनिकानां ड्रूज जनानाञ्च मध्ये संघर्षेषु अनेके जनाः मृताः. युद्धविरामस्य घोषणा तदा अभवत् यदा सीरिया देशस्य दक्षिण स्वीडा प्रान्ते ड्रूज समूहानां बेजुईन समुदायानाञ्च मध्ये संघर्षः निरन्तरतया प्रचलन्नासीत् येन त्रिशताधिकाः जनाः मृताः. अस्मिन् क्षेत्रे सहस्रशः जनाः विस्थापिताः च अभवन्. येन मानवीय संकटः प्रारब्धः. अत्रान्तरे तुर्की देशस्य राष्ट्रपतिः रिसेप तय्यिप एर्डोगान इत्येषः ह्यः रशिया देशस्य राष्ट्रपतिना व्लादिमीर पुतिन इत्यनेन सह दूरभाषया वार्तालापं कृत्वा सीरिया देशस्य संघर्षः सम्पूर्णक्षेत्रस्य स्थिरतायै भयावहः अस्ति इति चिन्तां प्रकटितवान्. प्रधानमन्त्री नरेन्द्रमोदी अद्य एकं लेखं प्रसारयन् अकथयत् यत् केन्द्रीयमन्त्रिणः मनसुख मांडवीयः अस्मिन् लेखे विस्तृतरूपेण व्याख्यायितवान् अस्ति यत् सम्मेलनं कथं मादकद्रव्यमुक्तभारतस्य निर्माणे साहाय्यं करोति इति. प्रधानमन्त्री नरेन्द्रमोदी अद्य स्वातन्त्र्ययोद्धां मंगलपाण्डेवर्यमपि तस्य जन्मवार्षिकदिने श्रद्धाञ्जलिम् अर्पितवान्. एकस्मिन् सामाजिकप्रसारमाध्यमे श्रीमोदी मंगलपाण्डे इत्येनं देशस्य प्रमुखः योद्धा इति प्रशंसां कुर्वन् उक्तवान् यत् सः ब्रिटिशशासनं विरुध्य स्वतन्त्रतायै समुपस्थितः अभवदिति. मंगलपाण्डेवर्यस्य शौर्यस्य कथा राष्ट्रस्य जनानां कृते निरन्तरं प्रेरणास्रोतः भविष्यतीति सः अवदत्. केन्द्रीय गृहमन्त्री अमितशाहः अपि मंगलपाण्डे इत्यस्मै सामाजिकप्रसारमाध्यमद्वारा श्रद्धाञ्जलिम् अददात्. सः तस्मै देशभक्तेः प्रेरकः इति अवोचत्. विद्रोहस्य ज्वालायाः प्रज्वालने तस्य महत्वपूर्णां भूमिकां च अंगीकृतवान्. सोमवासरतः आरभमाणात् संसदस्य मानसून सत्रात् पूर्वं सर्वकारेण श्वः सर्वपक्षीय सभा आहूता. सभायां सर्वकारः संसदस्य उभयसदनयोः सुकरप्रक्रियां निश्चेतुं सर्वेभ्यः राजनैतिकदलानां सहयोगं याचते. अस्य मासस्य एकविंशतिः दिनांकात् अग्रिममासस्य एकविंशतिः दिनांकपर्यन्तं प्राविटसत्रस्य आयोजनं भविष्यति. सत्रे अनेके महत्वपूर्णाः विधयः चर्चायै अंगीकाराय च स्वीकृताः भविष्यन्ति. केन्द्रीय शिक्षामन्त्री धर्मेन्द्रप्रधानः अद्य अवदत् यत् सप्तचत्वारिंशदधिकद्विसहस्रतमवर्षं यावत् भारतं विकसितदेशः भवितुं नियतः अस्ति तथा च एतल्लक्ष्यं साधयितुं प्रत्येकस्य नागरिकस्य भूमिका अस्ति इति. सः केरलस्य पालक्काडनगरस्य आईआईटी इति संस्थायाः सप्तमे दीक्षान्त समारोहे सम्बोधयन् आसीत्. वैश्विक डिजिटल क्षेत्रे भारतस्य वर्धमान उपस्थितिं प्रकाशयन् प्रधानः अवदत् यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना सम्पूर्णे देशे सर्वसमावेशकं नैतिकञ्च डिजिटल सार्वजनिक संरचनायाः कल्पना कृतास्तीति. अद्य प्रातःकाले यमुना एक्सप्रेसवे इत्यत्र पृथक् पृथक् दुर्घटनयोः षड् जनाः मृताः. ऊनविंशति जनाश्च व्रणिताः अभवन्. मथुरानगरस्य वरिष्ठ आरक्ष अधीक्षकः श्लोककुमारः अवदत् यत् अद्य प्रातः त्रिवादने प्रथमा दुर्घटना अभवत्. भारतीय ऋतुविज्ञान विभागेन अद्य केरलस्य पश्चिम राजस्थानस्य च केषुचित् भागेषु अत्यधिकवृष्टिः भविष्यतीति पूर्वानुमानं कृतमस्ति. चतुरङ्गक्रीडायां भारतदेशः प्रथमः अभवत् यत्र फिडे महिला विश्वकप इति क्रीडायाः प्रागुपान्त्यचक्रे चतस्रः क्रीडिकाः प्रविष्टाः इति वार्ताः.